सदा पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं वन्दे संस्कृतमातरम् एकक्षणम् नमस्ते. पूर्वं वयं दृष्टवन्तः यत् हनुमान् अशोकवनिकायां काञ्चन शिंशपां आरूढवान्. तत्र पत्राणां मध्ये आसीनः सः दृष्टवान् यत् प्रातःकाले उषःकाले इतोपि रात्रिः अवशिष्टा उषःकालः अपि न सञ्जातः तस्मिन् समये रावणः प्रविष्टवान् इति. तत्र प्रविशन्तं रावणम् अन्तःपुरस्त्रीभिः परिवृतः सः रावणः तत्र प्रविशन् आसीत् तं दृष्टवान् हनुमान्. सः यदा सीताम् उपसृतवान् सीतायाः समीपम् आगतवान् तदा सीता तम् अनेकहितवचनानि उक्तवती. तद्वयं दृष्टवन्तः. तव कुलं स्मर, ब्रह्मणः साक्षात् ब्रह्मणः पुत्रः भवतः कुलपितामहः मूलपुरुषः साक्षात् ब्रह्म इति हितवचनानि उक्त्वा तम् अपराधात् निवारयितुं हितवचनं वदति सीतादेवी. इदानीम् अग्रे किं वदति इति एव अस्माभिः द्रष्टव्यम्. इदानीं दोषं स्मरन् आनुकूल्यम् आचरन् मां यतः आनीतवान् पञ्चवटीतः तत् स्थाने तस्मिन् स्थाने मां प्रापय इति अत्र वदति अस्मिन् गद्यभागे. गद्यभागं पठामः. भूयोपि पञ्चवटी परिसरम्
भूयोपि पञ्चवटी परिसरम्
अमुं जनम् अनुकूलप्रभञ्जनः इव
अमुं जनम् अनुकूलप्रभञ्जनः इव
अनुकूलः कूलो अनुकूलः कूलोपकण्ठम्
अनुकूलः कूलोपकण्ठम्
परिभ्रष्टां नावम् इव
परिभ्रष्टां नावम् इव
यदि नयेथाः
यदि नयेथाः
तर्हि तवापि दयते
तर्हि तवापि दयते
नियतं मदीयः जीवितेशः
नियतं मदीयः जीवितेशः
साक्षात् जीवितेशः अपि त्वयि दयालुः भवेत्
साक्षात् जीवितेशः अपि त्वयि दयालुः भवेत्
एवं पदच्छेदः अस्ति. अत्र सीतादेवी वदति अनुकूलः सन् यथा अनुकूलवातः अनुकूलप्रभञ्जनः काञ्चन नौकां कूलं प्रति आनयति तटं प्रति सरोवरस्य वा नद्याः वा तटं प्रति आनयति तथैव मामपि भवान् अनुकूलः सन् पञ्चवटी परिसरे मां प्रापय इति वदति. भूयः अपि पुनरपि, नाम अहं तत्रैव आसम्, भूयः अपि पुनरपि तत्र यथा अहं भवेयं तथा कुरु इति. यदि त्वम् अनुकूलः सन् अमुं जनं पञ्चवटीपरिसरं प्रभञ्जनः परिभ्रष्टां नावं कूलोपकण्ठम् इव नयेथाः, तर्हि मदीयः जीवितेशः नियतं तवापि दयते, साक्षात् जीवितेशः अपि त्वयि दयालुः भवेत् इति सीतादेव्याः वचनम्. अत्र अनुकूल इति पदस्य द्विवारं प्रयोगः अस्ति, तथैव जीवितेशः इति पदस्यापि द्विवारं प्रयोगः. तत् तत्र कथं काव्यसौन्दर्यम् अत्र भवति इति पश्यामः. त्वम् अनुकूलः सन् इत्युक्ते अनुकूल्यम् आचरन्, अमुं जनं माम् पञ्चवटीपरिसरं, पञ्चवटी भूभागं तत्प्रदेशं कथं नय इति एकं दृष्टान्तं. यथा प्रभञ्जनः वातः वायुः परिभ्रष्टां नावं, तटात् दूरं नीता काचित् नौका अस्ति, तां नौकां परिभ्रष्टां नावं कूलोपकण्ठं तटस्य समीपम् इव यदि त्वं नयेथाः, तर्हि मदीयः जीवितेशः मम प्राणेश्वरः श्रीरामः नियतं निश्चयेन त्वयि दयते, तवापि दयते, साक्षात् जीवितेशः साक्षात् यमराजः अपि त्वयि दयालुः भवेत् इति सामान्य अर्थः. इदानीं प्रतिपदार्थं पश्यामः. यदि अनुकूलः, यदि त्वम् अविरोधी सन्, इतः पूर्वं भवान् प्रातिकूल्यम् आचरितवान् अस्ति, यद् न करणीयं तद् कृतवान् अस्ति. रामस्य प्रातिकूल्यम् आचर्यते चेत् तस्य परिणामः भयङ्करः एव भवति, अतः तद् अवगच्छ. अनुकूलः सन् अस्माकम् अविरोधी भूत्वा अमुं जनं माम् इति वदति. अमुम् इति सामान्यतया दूरे विद्यमानं वस्तु सूचयति. तत्र व्याकरणे लक्षणं तस्य उच्यते, एषः इदं शब्दः, तत् शब्दः, एतत् शब्दः, अदस् शब्दः, एतेषां प्रयोगः कथं भवति इति तत्र अस्ति. कथम् इत्युक्ते इदम् अस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम्, अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्. इदम् एतत् शब्दः सन्निकृष्टं विद्यमानं वस्तु सूचयति, तथैव अदस् शब्दः तत् शब्दः च दूरे विद्यमानं वस्तु, परोक्षे विद्यमानं वस्तु जनं वा सूचयति. तर्हि अत्र अमुम् इति पुरतः एव सीतादेवी अस्ति, तथापि अमुं जनम्, एतां जनं वा, इमां इमं जनं वा इति न वदति. अमुं जनम् इति अत्र किमर्थम् उच्यते इत्युक्ते, यद्यपि सीतादेवी अत्र कायेन शरीरेण उपस्थिता, तस्याः मनः, तस्याः सर्वं तु अन्तःकरणं तत्रैव, यत्र श्रीरामः तत्रैव अस्ति. अतः एव अमुं जनम्, अहं दूरे अस्मि, निकटे यद्यपि अस्मि तथापि त्वत्तः बहु दूरे अस्मि, अलभ्या अस्मि अहम् इति सूचकं पदम् अमुं जनम्. भूयोऽपि पञ्चवटीपरिसरं, पुनरपि पञ्चवटीपर्यन्तभुवम्, पर्यन्तभूः इति परिसरः इति उच्यते अमरकोशे. कथं नयेथाः, प्रभञ्जनः परिभ्रष्टां नावं कूलोपकण्ठम् इव, यथा अन्यदिशि दिशं प्रतिनीतां नौकां वातः तटसमीपं प्रापयति तथा अनुकूलः वातः नयेथाः तर्हि नयते नयति इति उभयपदी नी धातुः अत्र आत्मनेपदी पदिनः मध्यमपुरुषः एकवचनं विधिलिङ्गलकारः यदि त्वं नयेथाः तर्हि यदि त्वं मां तत्र प्रापयेः तर्हि मदीयः जीवितेशः मम प्राणपतिः श्रीरामः नियतं निश्चयेन तवापि यद्यपि त्वम् अपराधी तथापि तवापि अपराधिनी त्वयि अपि त्वं क्षमानर्हः वस्तुतः तथापि तव त्वयि दयते श्रीरामः इति वदति तस्याः तात्पर्यम् दयते दयां कुरुते साक्षात् जीवितेशः अपि यमराजः अपि कथं जीवितेशः जीवितानाम् ईशः भूतानाम् अन्तःकालस्य निर्णयः निर्णायकः नियमयति इति यमः भूतेशः कालः अन्तकः सूर्यपुत्रः यमुना भ्राता इति यमराजस्य इतरनामानि साक्षात् धर्मराजः सः अतः एव साक्षात् धर्मराजः यमराजः अपि त्वयि दयालुः भवेत् यतः स्वदोषम् अवगच्छन् यदि त्वं धर्मम् आचरसि तर्हि धर्मराजः निश्चयेन त्वयि दयालुः भवेत् इति तात्पर्यम् एतस्य अत्र भावार्थः यथा कांश्चन विप्रकृष्टां नौकां तटात् दूरे नीतां नौकाम् अनुकूलवातः तटस्य समीपे प्रापयति तथैव त्वं विरुद्धाचरणं परित्यज्य यतः माम् अपहृतवान् पुनरपि तं पञ्चवटीप्रदेशं प्रापय एवं करिष्यति त्वयि साधुशीलः श्रीरामः मद्भर्ता दयते एव स्वयम् अन्तकः यद्यपि सः दण्डधरः तथापि निजदोषं परिहृतवती त्वयि अवश्यं दयां करिष्यति इति भावः अग्रे सरामः एकं लघुवाक्यमस्ति अग्रे सीतादेवी किं वदति बहूनि यदि त्वम् अनुकूलम् आचरसि तर्हि तस्य बहु सत्परिणामाः भवन्ति किं किं भवति साक्षात् श्रीरामस्य दयापात्रं भवसि साक्षात् यमराजस्य दयापात्रं भवसि तदेव न श्रीरामस्य दयापात्रमेव न प्रेमपात्रमपि भवसि कथं श्रीरामस्य मैत्रीं प्राप्नोषि त्वम् इति वदति सीतादेवी दाशरथेः
दाशरथेः
अजर्या मैत्र्याः पात्रमपि भवितासि
अजर्यायाः मैत्र्याः पात्रमपि भवितासि
दाशरथेः श्रीरामस्य अजर्यायाः अजर्यायाः मैत्र्याः पात्रमपि भवितासि या मैत्री कदापि न क्षीयते तादृश्याः मैत्र्याः पात्रमपि त्वं भवे त्वं भवेः यदि त्वं मम हितैषी सन् अनुकूलम् आचरसि तर्हि श्रीरामस्य अजर्यायाः जरितुं योग्या जर्या यत् क्षीयते अजर्या न जर्या इति अजर्या अजर्यायाः मैत्र्याः षष्ठी अत्र श्रीरामस्य अनपायि सख्यं यत् कदापि न क्षीयते कदापि न्यूनं न भवति शाश्वतीं मैत्रीं प्राप्नोषि इति अर्थः अनपायि सख्यमपि त्वं प्राप्स्यसि एव इति सीतादेवी वदति किन्तु एतावत् एतावन्ति हितवचनानि उक्त्वा अपि रावणस्य हृदये किमपि परिवर्तनं न जातम् स्वदोषं न अवगतवान् सः तस्य मुखभावेन ज्ञायते तस्य भावभङ्गिमां सर्वं वदति यत् सः सीतादेव्याः वचनं श्रोतुं न सिद्धः. अतः सीतादेवी तद् अवगच्छति. अतः इदानीं तस्याः वचने न केवलं उपदेशः अस्ति, इदानीं सा तं तस्य अवबोधनमपि कारयति, वार्निङ्ग् अपि ददाति. यदि त्वं मम कथनानुसारं न आचरसि तर्हि तव परिणामः निश्चयेन तव अनुकूलं न भवति, अनुकूलाय न भवति इति वदति. अत्र किं वदति, यदि त्वं उचितं न करोषि तर्हि श्रीरामस्य बाणस्य भवान् लक्ष्यं भवति एव. तदेव न अग्रे श्रीलक्ष्मणस्य विषये अपि तदेव वदति. अत्र गद्यभागं पठिष्यामः. किन्तु खरप्रमुख निशाचर बलमथन समय रुचिरलग्न
किन्तु खरप्रमुख निशाचर बलमथन समय रुचिरलग्न
सान्द्रवसा पङ्किल मुखम्
सान्द्रवसा पङ्किल मुखम्
आर्यपुत्रस्य शिलीमुखम्
आर्यपुत्रस्य शिलीमुखम्
भवन्तम् अन्तरेण कः श्रद्धधीत
भवन्तम् अन्तरेण कः श्रद्धधीत
निजहृदयगलित रुधिरधारया प्रक्षालयितुम्
निजहृदयगलित रुधिर धारया प्रक्षालयितुम्
सीतादेवी वदति यदि तव हठम् अस्ति एतस्मिन् विषये अहं मम चिन्तनानुसारमेव आचरामि, अन्यस्य कस्यापि वचनं न शृणोमि, धर्मं न आचरामि इति, यदि भवतः हठम् एवमेव अस्ति तर्हि श्रीरामात् भवन्तं कः वा त्रातुं शक्नोति, न कोऽपि त्रातुं शक्नोति इति तात्पर्यम् इति अत्र. किन्तु अन्यथा आचरणेन, यदि भवान् अन्यथा आचरति तर्हि खरप्रमुख खरसदृश अन्य राक्षसाः अपि निशाचराः राक्षसाः निशि चरन्ति इति निशायां चरन्ति इति निशाचराः तेषां बलं बलम् इत्युक्ते सामान्यतया देहबलम् इति बलम् इति कथ्यते, अत्र बलम् इत्युक्ते सैन्यं राक्षससैन्यम् निशाचरबलं खरप्रमुखनिशाचरसैन्यस्य मथनसमये तेषां मारणसमये तेषां हननसमये मथनसमये विध्वंसकाले रुचिरलग्नसान्द्रवसा पङ्किलमुखं श्रीरामस्य बाणः साक्षात् यत्र लक्ष्यमस्ति तत् लक्ष्यं विध्यति. अतः एव रुचिर इति उक्तं, सम्यक् लग्नं श्री यत्र बाणेन गन्तव्यं साक्षात् तत् बिन्दु प्रति बाणः गच्छति. अतः तेषां देहे तेषां हृदये लग्नं भूत्वा लग्नः भूत्वा सः बाणः तेषां हृदयमेव विदारयति किल. अतः रुचिरलग्न सान्द्रवसा घनमेदः, वसा इत्युक्ते फ्याट्, घन शरीरस्य यत्र मेदः भवति तत्र लग्नः भवति श्रीरामस्य बाणः, लग्नः भवति स्म. तेन वसायां तत्र मेदसि बाणः लग्नः भूत्वा पङ्किलः भवति, रक्तेन दिग्धः भवति, रक्तेन तद् लिप्तः भवति बाणः. अतः एव सान्द्रवसा पङ्किलमुखम्, मुखम् इत्युक्ते अत्र अग्रभागः, बाणस्य अग्रभागः रक्तेन लिप्तः भवति. केषां रक्तेन? खरप्रमुखनिशाचराणाम्. आर्यपुत्रस्य मम पत्युः शिलीमुखं बाणः, शिलीमुखः इत्युक्ते बाणः, तत् तं बाणं तं शिलीमुखम् इदानीं शुष्कं जातमस्ति किल, कञ्चित् कालः जातः युद्धः न प्रवृत् युद्धं न प्रवृत्तम्, अतः इदानीं तत् शुष्कं, पूर्वं पङ्किलं, पूर्वं रक्तदिग्धम्, इदानीं किञ्चित् शुष्कं, तस्य प्रक्षालनं करणीयं. पुनः केन प्रक्षाल्यते? भवतः रुधिरधारया, भवतः हृदयात् पुनः श्रीरामबाणः भवन्तं विद्यति. भवतः हृदयात् या रुधिरधारा प्रवहति तया रुधिरधारया इदानीं श्रीरामबाणस्य प्रक्षालनं यदि भवेत् इति विधिः विधिना विहितं, तर्हि तद् केन परिवर्तितुं शक्यते इति सीतादेव्याः कथनं. भवन्तम् अन्तरेण, भवन्तं विहाय कः श्रद्दधीत प्रक्षालयितुं? किं प्रक्षालयितुं? निजहृदयगलितरुधिरधारया प्रक्षालयितुं तं शिलीमुखं, बाणं प्रक्षालयितुम् इति. अत्र अन्वयः, किन्तु खरप्रमुखनिशाचरबलमथनसमय रुचिरलग्नसान्द्रवसा पङ्किलमुखम्, एकपदम् एतद्, आर्यपुत्रस्य शिलीमुखं भवन्तमन्तरेण निजहृदयगलितरुधिरधारया प्रक्षालयितुं कः श्रद्धदीथ? अन्वयार्थः किन्तु, किन्तु इत्युक्ते अत्र प्रत्युत, आन् द कान्ट्ररि, अहं हितं वदन्ती अस्मि, तद् आचर, आत्मानं रक्षस्व इति एव, आत्मानं रक्ष इति एव सीतायाः कथनमासीत् पूर्वम्. किन्तु तथा भवान् न आचरति चेत् किं? मया यदुक्तं तद् न कृतं चेत् किं भवति? खरप्रमुखनिशाचर बलमथनसमय रुचिरलग्नसान्द्रवसा पङ्किलमुखम् आर्यपुत्रस्य शिलीमुखम्, आर्यपुत्रस्य बाणः अस्ति किल, तं बाणं शिलीमुखं, कीदृशं बाणं? खर सदृश, खरात् आरभ्य, अन्य खरदूषण इति बहवः राक्षसाः श्रीरामेण हताः, चतुर्दशसहस्रा सहस्रं राक्षसाः इति उच्यते किल, खरप्रभृतिराक्षससैन्यस्य बलस्य मथनसमये विध्वंसकाले रुचिरलग्नसान्द्रवसा सम्यक् संसक्ततया, सम्यक् हृदये तद् सः बाणः संसक्तः अभवत्, तेन सघनमेधसा, घनमेधस् इति शरीरे यदस्ति तेन मेधसा पङ्किलमुख स्निग्धः अग्रभागः यस्य, सः शिलीमुखः, तं शिलीमुखं, तम् आर्यपुत्रस्य बाणं भवन्तमन्तरेण त्वत्रिते त्वां विहाय निजहृदयगलितरुधिरधारया स्ववक्षसः निःसृतेन रक्तप्रवाहेण, रुधिरम् इत्युक्ते रक्तं, प्रक्षालयितुं शोधयितुं कः श्रद्दधीत, कः तत्परः भवेत्? न कोऽपि इति अर्थः. भवतः रुधिरेण एव तद् तस्य बाणस्य प्रक्षालनं भवेत् इति मन्ये, अतः एव त्वं साधुना आचरसि इति सीतादेव्याः तात्पर्यम्. अत्र सीतादेवी वदति, मत् कथनम् अनादृतवान् भवान्, अतः भवतः सा एव गतिः भवेत् या गतिः खरसदृशानां राक्षसानाम् अभवत्. तस्य राक्षससैन्यस्य दलनसमये, मारणसमये श्रीरामस्य ये अमोघाः बाणाः सन्ति किल, ते बाणाः राक्षसानां देहस्य मेधसि संसक्तः भवति सः बाणः. तादृशस्य रुधिर प्रदिग्धस्य, किन्तु इदानीं शुष्क दशां गतस्य बाणस्य प्रक्षालनं भवतः रुधिरप्रवाहेण एव भविष्यति नूनम्. प्रातिकूल्यम् आचरतः तव श्रीरामशरेण हननम् अपरिहार्यम्, अतः आत्मघातकः मा भवतु इति सीतादेवी तं रावणं प्रबोधयति. तत्र खरप्रभृति, खरप्रभृतीनां राक्षसानाम्, अन्ये बहवः राक्षसाः मारिताः एव, तेषु मुख्याः खरः, दूषणः सुबाहुः कबन्धः मारीचः इति सहस्राधिकाः राक्षसाः हताः श्रीरामेण। पुनरपि अग्रे अपि सीतादेवी लक्ष्मणस्य व्रतं व्रतविषये वदिष्यति। सः अपि व्रतं स्वीकृतवान् अस्ति यत् तत् भवतः हननानन्तरमेव तस्य व्रतान्तम् इति। तदनन्तरं पुनः श्लोकः अस्ति यत्र सीतादेवी देव्याः वचनं न शृणोति, तस्य मनः न प्रविशति एव इति एकः श्लोकः अस्ति, तद् वयम् अग्रे पठिष्यामः। एतावदेव अभवत् भगिनी गतवर्गे।
अस्तु महोदय।